सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी एकवारं तान् श्लोकान् स्मारयतु।
ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयं। हरिः ॐ श्रीगुरुभ्यो नमः।
धन्यवादः भगिनी। अष्टाध्याय्यां प्रत्ययः प्रक्रिया च समग्रदृष्टिः इति पाठः प्रवर्तमानः अस्ति, पूर्वमेव आरब्धः। अस्मिन् अवसरे पूर्वस्मिन् वर्गे करपत्रे उपस्थितं चित्रद्वयं परिशीलितवन्तः। अनेन चित्रद्वयेन किं ज्ञायते, प्रत्ययानां स्वभावः कीदृशः भवति, अपि च प्रक्रिया कतिधा विभज्यते। प्रक्रिया चतुर्विधा भवति, बहवः प्रत्ययाः सन्ति। प्रत्ययस्य स्वभावम् आश्रित्य प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति इति प्रत्ययानां प्रसङ्गे किञ्चित् अवगतवन्तः। धातुभ्यः विधीयमानः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् सः सार्वधातुकप्रत्ययः पित् अस्ति वा अपित् अस्ति वा इति द्रष्टव्यम्। धातुभ्यः विधीयमानः प्रत्ययः आर्धधातुकसंज्ञकः अस्ति चेत् पित् अपित् इति चिन्तनम् अनावश्यकम्। आर्धधातुकप्रत्ययः अस्ति चेत् पित् अपित् चिन्तनं मास्तु। धातुभ्यः विधीयमानः प्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत् इतोपि सः प्रत्ययः कीदृशः इति इतोपि चिन्तनं करणीयं खलु। आर्धधातुकप्रत्ययः अस्ति चेत् सः आर्धधातुकप्रत्ययः कित् नित् अस्ति वा णित् इणित् अस्ति वा, नो चेत् कित् नित् इणित् नित् भिन्नः अस्ति वा, एतत् सर्वं द्रष्टव्यं। तदनुसृत्य पश्चात् कार्याणि भवन्ति इति अवगतवन्तः। अद्य तत्सम्बद्धानि सूत्राणि एकवारम् अवलोकयामः। अस्मिन्नेव करपत्रे सूत्राणि दत्तानि। सूत्रैः किं भवति इति ज्ञातमेव, किन्तु सूत्रान्तर्गतविषयाः केचन सन्ति खलु, सूत्रान्तर्गतविषयान् पठामः अद्य। अचोयिणिति इत्येकं सूत्रमस्ति, अत उपधायाः सूत्रमस्ति, अपि च पूर्वं परिचितानि सूत्राणि सन्ति, सार्वधातुकार्धधातुकयोः पुगन्तलघुपधस्य च, सार्वधातुकम् अपित् क्निति च, इमानि चत्वारि सूत्राणि पूर्वं पठितानि एव, किन्तु अचोयिणिति अत उपधायाः इति सूत्रद्वयस्य प्रसङ्गे अद्य किञ्चित् चिन्तनं कृत्वा धातूनां रूपाणि साधयितुं प्रयत्नं कुर्मः। अस्मिन् करपत्रे धातवः दत्ताः खलु, अभ्यासार्थं तान् धातून् स्वीकृत्य कानिचन रूपाणि साधयामः। सार्वधातुकप्रक्रिया कीदृशी भवति, आर्धधातुकप्रक्रियायां कानि कानि कार्याणि भवन्ति इति अवगन्तुं केचन प्रत्ययाः अपि दत्ताः। धातून् स्वीकृत्य प्रत्ययान् संयुज्य रूपाणि साधयामः इति अद्यतनकार्यमस्ति। अपि च अस्माकम् अवगमनार्थं सर्वेषां सहपाठीनां कृते कांश्चन णित् प्रत्ययान् प्रेषितवती, इणित् प्रत्ययान् अपि प्रेषितवती। इत्युक्ते केचन तद्धितप्रत्ययाः इणित् प्रत्ययाः सन्ति, इणित् प्रत्ययाः सन्ति, न केवलं तद्धितप्रत्ययाः, आर्धधातुकप्रत्ययाः इणित् इणित् प्रत्ययान् प्रेषितवती, केषाञ्चन सहपाठीनां कृते एव प्रेषितवती, सर्वेषां कृते न। अद्य वयम् अचोणिति इति सूत्रात् आरभ्य पठेम। नीलं भगिनी, भवत्याः पुरतः अस्ति वा सूत्रम्?
आम् अस्ति महोदय,
आरम्भं करोतु।
सूत्रमस्ति अचोणिति, सप्तमाध्याये द्वितीयपादे पञ्चदश अधिक एकशततम सूत्रम्। अजन्तङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति णिति प्रत्ययः प्रत्यये परे। येन विधिस्तदन्तस्य प्रथमाध्याये प्रथमपादे द्विसप्ततितं सूत्रम्। इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य, अपि तु अजन्तस्य अङ्गस्य। अलवान्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च ण च णौ ननौ इतौ यस्य तत् नितः तस्मिन् नीनिति द्वन्द्व गर्भः बहुव्रीहिसमासः अचः षष्ठ्यन्तं निनिति सप्तम्यन्तं द्विपदमिदं सूत्रं मृझेर्वृद्धिः सप्तमध्याये द्वितीयपादे चतुर्दश एकशत अधिक एकशततम सूत्रम् इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य षष्ठमध्याये चतुर्थपादे प्रथमसूत्रम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः निमिति
प्रत्येकं वाक्यस्य अर्थः अस्ति खलु, तस्य प्रामुख्यम् अस्ति खलु, अतः प्रत्येकं वाक्यं स्वीकृत्य विवृणोतु.
अचो निनिति इति यः सूत्रम् अस्ति तत्र अत्र प्रथमं लिखितम् अस्ति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति निति निति प्रत्ययः परे. इत्युक्ते अङ्गस्य अङ्गम् अजन्तम् अस्ति चेत् अङ्गस्य अन्ते कोऽपि अच्वर्णः अस्ति चेत् तस्य अन्तिमवर्णस्य इत्युक्ते तस्य अन्तिम अचस्य वृद्धिः भवति यदि तस्य अङ्गस्य परे कोऽपि णित् अथवा अणित् प्रत्ययः अस्ति.
पदविच्छेदं कुर्मः चेत् अचः इणिति इति पदद्वयमेव अस्ति, द्विपदमिदं सूत्रम् अचः इत्यस्य विभक्तिः का?
अचः इति षष्ठी विभक्ति.
सूत्रे षष्ट्यन्तं पदम् अस्ति चेत् तस्य अर्थः कः?
स्थाने भवति तस्य स्थाने कार्यं करणीयम्.
उत्तमम्. अचः स्थाने कार्यं भवति. अत्र निमित्तं किम्?
निमित्तम् अस्ति णित् प्रत्ययः अपि च णित् प्रत्ययः.
इत्युक्ते सूत्रे सप्तमी विभक्त्यन्तं पदम् अस्ति चेत् तस्य अर्थः कः?
पूर्वकार्यं परनिमित्तम्.
उत्तमम्. परनिमित्तम् अस्ति, पूर्वकार्यं भवति. इणित् प्रत्यये परे इणित् प्रत्यये परे कार्यं भवति. अत्र कार्यं किम्?
वृद्धिकार्यम् अस्ति, अचस्थाने वृद्धि करणीयम्.
उत्तमम्. इदं सूत्रं कस्मिन् अधिकारे अस्ति?
सूत्रम् अङ्गस्य अधिकारे अस्ति, अतः अङ्गस्य एव तत्र अङ्गस्य परे णित् प्रत्ययः अथवा ण्यत् प्रत्ययः आयाति चेत् कार्यं भवति.
उत्तमम्. अङ्गाधिकारः नाम किं? सूत्रम् अङ्गाधिकारे अस्ति इत्यनेन किं ज्ञायते?
प्रत्ययस्य पूर्वं यत् किमपि भागः तत्र सः अङ्गम् इति उच्यते, तत्र एव कार्यं करणीयम्. इत्युक्ते वर्णसमूह यत् किमपि भागं प्रत्ययस्य पूर्वे अस्ति तत् सः अङ्गं तस्य तत्र एव कार्यं करणीयम्.
उत्तमम्. इदं सूत्रम् अङ्गाधिकारे अस्ति, अङ्गस्य इति अधिकारः अस्ति, अङ्गं नाम किम् इति पूर्वं पठितमेव. यस्मात् प्रत्ययविधिस्तदादि प्रत्यये अङ्गम् इति अङ्गसंज्ञासूत्रमस्ति. प्रत्ययात् पूर्वं यावन् भागः अस्ति तत्सर्वम् अङ्गम् इति वदामः. इदं सूत्रम् अङ्गाधिकारे अस्ति इत्युक्ते इदम् अङ्गकार्यं भवितुं प्रत्ययः अपेक्षितः. प्रत्ययं निमित्तीकृत्य अङ्गे कार्यं भवति. अत्र अङ्गं कीदृशम् अस्ति वदतु.
अजन्त अङ्गम् अस्ति, अङ्गस्य अन्ते अचवर्णः अस्ति चेत् तत्र कार्यं भवितुम् अर्हति.
उत्तमम्. अङ्गं कीदृशं भवेत् इति ज्ञातुम् अत्र अनुवृत्तिसहितसूत्रं दत्तमस्ति. अनुवृत्तिसहितसूत्रं किं वदति?
अचः अङ्गस्य वृद्धिः निति णिति.
उत्तमम्. अचः अङ्गस्य इति पदद्वयमस्ति. अनुवृत्तिसहितसूत्रं पश्यामश्चेत् अचः अङ्गस्य इति पदद्वयमस्ति. अनयोः मध्ये कीदृशसम्बन्धः अस्ति?
अत्र अचः अपि षष्ठ्यन्तं पदः, अङ्गस्य अपि षष्ठ्यन्तं पदः, सो अत्र विशेषणविशेष्यभावः अस्ति.
विशेष्यं किं, विशेषणं किम्?
अचः इति विशेषणम् अस्ति, अपि च अङ्गः अङ्गस्य इति यः पदमस्ति सः विशेष्य अस्ति.
उत्तमम्. अत्र अच् इति हलन्तशब्दः, अच् अचौ अचः एवं रूपाणि भवन्ति हलन्तशब्दस्य रूपाणि. अचः इति षष्ठ्यन्तं पदमस्ति, अङ्गस्य इति षष्ठ्यन्तं पदमस्ति. अचः अङ्गस्य द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. अत्र अङ्गं विशेष्यम् अच् इति विशेषणं भवति. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. एतत् सर्वं व्याख्यानं दृष्ट्वा ज्ञातुं शक्नुमः. यद्यपि अत्र न लिखितमस्ति, व्याख्यानं दृष्ट्या एतत् सर्वं ज्ञायते. अचः अङ्गस्य अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति यत्र यत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति तत्र येन विधिस्तदन्तस्य सूत्रम् आवश्यकमस्ति. किमर्थम्? अत्र तदन्तविधिः भवति. तदन्तविधिः अत्र नास्ति चेत्, येन विधिस्तदन्तस्य इति सूत्रम् अत्र नास्ति चेत्, परिभाषासूत्रम् अत्र न आयाति चेत् का आपत्तिः?
अत्र अचः अङ्गस्य वृद्धि निणिति इति यः सूत्र सम्पूर्णसूत्रम् अस्ति, तत्र यदि वयं येन विधि तदन्तस्य इति सूत्रं न युज्यामः चेत् तत्र अचः इत्युक्ते नित् नित् प्रत्ययः परे कोऽपि अच् वर्णः अस्ति चेत् तस्य वृद्धिः करणीयम् इति तत्र भावः तत्र उद्यति. परन्तु येन विधि तदन्तस्य इति सूत्रेण किं भवति, न केवलम् अच् इति अच् इति भागस्य वृद्धिः, अच् इति वर्णस्य वर्णानां वृद्धिः, परन्तु तादृशशब्दसमूहः यस्य अन्ते अच् वर्णः विधीयते तस्य अपि तत्र कार्यम् अनेन सूत्रेण भवति, इत्युक्ते वृद्धिः भवति.
बहु उत्तमं, तथा वक्तव्यम्. अत्र तदन्तविधिः भवति. येन विधिस्तदन्तस्य इति परिभाषासूत्रम् आवश्यकम्. अनियमे नियमकारिणी परिभाषा इत्युक्ते विधिसूत्रार्थं साहाय्यं करोति यत् सूत्रं तदेव परिभाषासूत्रम् इति वदामः. अनियमे नियमकारिणी परिभाषा. येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता अत्र किमर्थमस्ति इति प्रश्ने सति, अत्र येन विधिस्तदन्तस्य इति सूत्रं नास्ति चेत् केवलम् अच् इति अङ्गं भवतु, इत्युक्ते अच् वर्णः एकः एव तस्मिन् अङ्गे भवतु इति अर्थः तत्र निष्पद्यते. परिभाषासूत्रं नास्ति चेत् आपत्तिः भवति, इत्युक्ते तत्र कार्यक्षेत्रं बहु लघु भवति. एतत् सूत्रं बहुत्र कार्यं करोति, अचोणिति इति सूत्रम्. अस्य सूत्रस्य कार्यं बहुत्र आवश्यकमस्ति. अस्य सूत्रस्य कार्यक्षेत्रं बृहत् कर्तुं, बहुत्र साधयितुं येन विधिस्तदन्तस्य इति परिभाषासूत्रस्य आवश्यकता अस्ति. तेन सूत्रेण कार्यक्षेत्रं बृहत् भवति, इत्युक्ते न केवलम् अचीति अङ्गस्य, यस्य कस्यापि अजन्ताङ्गस्य वृद्धिः भवति इति अर्थः अस्ति. अत्र येन विधिस्तदन्तस्य इति सूत्रं नास्ति चेदपि अच् इति अङ्गमेव स्वीकुर्मः. किन्तु येन विधिस्तदन्तस्य इति सूत्रम् अस्ति इति कारणतः न केवलम् अच् इति अङ्गस्य, अजन्तस्य अङ्गस्य इत्युक्ते यस्य अन्ते अच् वर्णः अस्ति तदपि स्वीकर्तव्यम् इति अर्थः अस्ति. अचः अङ्गस्य अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति इति कारणतः अभेदत्वं दृश्यते. अचः अङ्गस्य इत्यत्र अभेदत्वम् अस्ति, इत्युक्ते यथा सुन्दरबालकः, उन्नतवृक्षः, मधुरखाद्यम् इत्यादिषु विशेषणपूर्वपदकर्मधारयसमासः अस्ति खलु, तत्र विशेषणविशेष्यभावः अस्ति. विशेषणविशेष्यभावः केन श्लोकेन उच्यते, कोऽपि वक्तुमिच्छति वा? एकः श्लोकः अस्ति तस्मिन् प्रसङ्गे विशेषणविशेष्यभावं वक्तुम् एकः श्लोकः अस्ति. भगिनी, भवती स्मारयति वा?
न जानामि.
अहं जानामि भगिनि, यल्लिङ्गं यल्लिङ्गं यद्वचनं साचा विभक्तिः, तल्लिङ्गं तद्वचनं साचा विभक्तिः, यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य, तल्लिङ्गं तद्वचनं साचा विभक्तिः विशेषणस्य.
अपि तदेव अचः अङ्गस्य अनयोर्मध्ये विशेषणविशेष्यभावः अस्ति, तयोर्मध्ये अभेदत्वम् उच्यते. इत्युक्ते यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा विभक्तिः विशेषणस्य अपि इति श्लोकः अस्ति. विशेषणविशेष्यभावः अस्ति चेत् तत्र अभेदत्वम् उच्यते. सुन्दरबालकः इति कथनेन बालके सुन्दरत्वम् अस्ति, तत्र अधिकरणं बालकः एव, बालके एव बालकत्वं सुन्दरत्वम् अपि अस्ति. तादृश अर्थः अत्र न इष्टः. तादृश अर्थः अत्र आयति चेत् नी इति धातोः स्वीकरणं न भवति, भूधातोः स्वीकरणं न भवति. इत्युक्ते एतादृशधातवः सन्ति खलु, नी भू भी इत्यादयः धातवः अजन्तधातवः सन्ति खलु, एतेषाम् अन्ते अचुवर्णः एव अस्ति, किन्तु येन विधिस्तदन्तस्य इति सूत्रं नास्ति चेत् एतेषां धातूनां ग्रहणं न भवति, कार्यक्षेत्रं बहु लघु भवति, अतः अजन्तस्य अङ्गस्य इति कथनेन तत्र कार्यक्षेत्रं बृहत् भवति। नीलं भगिनी भवती वदतु।
क्षम्यतां भगिनि, इत्युक्ते कार्यक्षेत्रं लघु भवति इत्यनेन केवलम् अचुवर्णः एव अङ्गम् इति भवति वा?
अत्र येन विधिस्तदन्तस्य सूत्रं नास्ति चेत् कार्यक्षेत्रं लघु भवति।
आम्, तत्र अजः एव अङ्गं भवति इति, तदानीं केवलम् अचुवर्णरूपिणी यत् धातु वर्तते तेभ्यः एव अङ्गम् इति भवितुम् अर्हति वा इति मम प्रश्नः।
न केवलम् अच् इति अङ्गम् इत्युक्ते यस्य अन्ते अचुवर्णः अस्ति तदपि स्वीकर्तव्यम् इति अर्थः अत्र सिद्ध्यति।
तत् यदा येन विधिस्तदन्तस्य इति सूत्रस्य आधारेण एव
आधारेण एव तदवगन्तुमेव एकम् उदाहरणं परिशीलयामः। नीलं भगिनी भवती वक्तुमिच्छति वा? ई इति धातुः अस्ति, केवलम् ई इति धातुः अस्ति, ई धातुः अजन्तधातुः एव, अजन्तधातोः परं णिच् प्रत्ययं स्वीकरोतु, ई धातुतः णिच् प्रत्ययं योजयामः, वृद्धिकार्यं भवति। एकवारं वदतु तत्र किं भवति?
ईकारस्य वृद्धि भवति ऐकारः, सो तत्र ऐ योग ई, अनन्तरं तत्र अहं चिन्तयामि सन्धिकार्यं करणीयम्, ऐकारः योग निच् प्रत्ययस्य केवलम् ई इति अवशिष्टभागः, तत्र नकारः चकारः अपगच्छति, सो तत्र अनन्तरं तत्र सन्धिकार्यं करणीयम्, एचोयवायावः इति सूत्रेण तत्र आयि इति भवति, आयि
नूतनधातुः आयि भवति। उत्तमम्, आयि इति नूतनधातुः, तत्र लटीरूपमस्ति आययति, अन्यानि कार्याणि भूत्वा आययति इति रूपं सिद्ध्यति। अन्यधातवः अपि केचन सन्ति खलु, नी धातुः अस्ति, ई धातोः रूपं भवती उक्तवती, नी धातुं स्वीकृत्य नाययति इति रूपं साधयितुं नी धातोः ग्रहणं भवितुं येन विधिस्तदन्तस्य इति सूत्रम् अपेक्षितं खलु?
आम्, तत्र वर्णसमूहः अस्ति, न केवलम् अच् अस्ति, अत्र णी इति नकारः इकारः, सो अजन्तं धातु अस्ति, सो अत्र येन तदन्तस्य इति सूत्रेण एव तत्र आवश्यकता, तेन सहायता एव वयम् अत्र वृद्धि कर्तुं शक्यते।
उत्तमम्, येन विधिस्तदन्तस्य सूत्रमस्ति चेदेव नी धातोः ग्रहणं भवति। एवमेव भी इति धातुः अस्ति, भी धातोः अणिजन्तरूपमस्ति भाययति, भी धातुः जुहोत्यादिगणे अस्ति, बिभेति इति लटीरूपमस्ति, अणिजन्तलटीरूपमस्ति, किन्तु अणिजन्तरूपं भाययति अस्ति, भी धातोः स्वीकरणमपि येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति चेदेव भवति अत्र। एतादृशधातवः मम पुरतः केचन सन्ति। चि इति धातुः अस्ति, नरेश महोदय भवान् वदतु।
चि अस्ति, चि अजन्तधातुः अस्ति, अजन्तधातु अन्ते एकारः अस्ति, तत्तु अच् वर्णः अस्ति।
उत्तमं, चि धातुः अजन्तधातुः, तस्य अन्ते अच् वर्णः अस्ति, चि धातोः रूपं साधयितुमपि येन विधिस्तदन्तस्य इति सूत्रम् अपेक्षितम् अस्ति। चि धातुतः चायि इति नूतनधातोः निर्माणं, निजन्तधातोः निर्माणं भवति, चि धातुतः चाययति, चायकः इत्यादीनि रूपाणि। एवमेव हृ इति धातुः अस्ति, नरेश महोदय वदतु, हृ धातुतः णिजन्तरूपं किं सिद्ध्यति?
हृ धातुः अन्ते ऋकार अस्ति, ऋकार अपि अच् वर्णः अस्ति, तत्र हृस्य गुणकार्यं भवति, हरि हर् भवति।
णिजन्तरूपं साधयितुम् इच्छामश्चेत् हुरु इति अजन्तधातुः अस्ति, अतः गुणकार्यं न भवति, तत्र वृद्धिकार्यं भवति खलु?
अस्तु अस्तु, वृद्धिकार्यं भवति अजन्तधातुः अस्ति चेत्।
वृद्धिं करोतु,
तत्र हृ वृद्धिकार्यं किं भवति?
सुन्दरमहोदय वदतु.
हृ वृद्धिः भूत्वा हार् भवति.
हारि इति नूतनधातुः खलु.
हारि इति रूपं भवति. तदनन्तरं हारै इति सन्धिसूत्रेण एच् वयवायामः इति सन्धिसूत्रेण हारै भवति. तदनन्तरं हारै योगे अयोगेति हारयति इति अन्तिमं रूपं सिद्ध्यति.
उत्तमं. हृधातुः अजन्तधातुः एव. हृधातोः स्वीकरणमपि भवितुम् येन विधिस्तदन्तस्य सूत्रम् अपेक्षितमस्ति. परिभाषासूत्रं नास्ति चेत् तत्र समस्या जायते. इत्युक्ते तादृशं रूपं साधयितुं न शक्नुमः. हृधातुतः हारयति दीर्घरूकारान्तधातुः अस्ति थ्रू. तत्र किं रूपं सिद्ध्यति? णिजन्तरूपं. सुन्दरमहोदय
धार् भवति. वृद्धिः भूत्वा धारि इति भवति. तदनन्तरं सन्धिसूत्रेषु अयवायवः इति सन्धिसूत्रेण धारै भवति. धारै योगे अयोगेति धारयति इति अन्तिमं रूपं सिद्ध्यति निजन्तरूपम्.
किन्तु अहं कस्मिन् प्रसङ्गे पृष्टवती इत्युक्ते त्रू त्रू इति धातुः अस्ति. त्रू धातोः रूपं तरति.
तृ तरति वा? ओके. तृ इति भवति. तदनन्तरं तृ इति धातुः वृद्धिः भूत्वा तार् भवति. तार् योगे तारि इति भवति. तदनन्तरं एचो अयवायवः इति सन्धिसूत्रेण तारै भवति. एवं तारै योगे अयोगेति तारयति इति अन्तिमं रूपं सिद्ध्यति.
उत्तमं. लू इति एकः धातुः अस्ति. लू धातोः रूपं लावयति भवति. कथं
लावयति? लू लू लाव् भवति. लू इति रूपं तस्य वृद्धिः भूत्वा लौ भवति. लौ भवति वृद्धिः भूत्वा लौ भवति. तदनन्तरं एचो अयवायावः इति सन्धिसूत्रेण लाव् भवति. लाव् योगे अयोगे ति लावयति इति अन्तिमं रूपं सिद्ध्यति.
उत्तमं. लू धातुतः लावि इति णिजन्तधातोः निर्माणं भवति. पश्चात् लटी रूपं लावयति. पू इति धातुः अस्ति. पावि इति नूतनधातुः. पावयति इति रूपं सिद्ध्यति. द्रु इति धातुः अस्ति. द्रु धातोः रूपं द्रावयति. णिजन्तरूपम् अस्ति. द्रु धातुतः द्रावि इति णिजन्त आतिदेशिकधातोः निर्माणं कुर्मः. पश्चात् द्रावयति इति णिजन्तयुक्तं लटीरूपं सिद्ध्यति. एते धातवः सर्वे अजन्ताः एव. येन विधिस्तदन्तस्य इति सूत्रमात्र नास्ति चेत् एतेषां ग्रहणं न भवति. तत्र समस्या जायते. परिभाषासूत्रस्य आवश्यकता अतः अस्ति. परिभाषासूत्रं नास्ति चेत् क्लेशः भवति. एवमेव भूधातोः रूपं भूधातुतः णिजन्तरूपं वदतु.
भावयति इति भावि इति वृद्धिः भूत्वा भावि भवति. तदनन्तरं भावै सन्धिसूत्रेण एचु अयवायवः इति सन्धिसूत्रेण भावै भवति. भावै योगे अयोगेति भावयति इति अन्तिमं रूपं सिद्ध्यति.
उत्तमम्. अत्र भू इति धातुः अजन्तधातुः. येन विधिस्तदन्तस्य इति परिभाषासूत्रेण तस्य ग्रहणमपि भवति. पश्चात् णित् प्रत्ययः. णिच् प्रत्ययः णित् अस्ति इत्यतः णिच् प्रत्ययं निमित्तीकृत्य अचोणिति इति सूत्रेण वृद्धिकार्यं भवति. ऊकारस्य वृद्धिः औकारः. भू इत्यस्य रूपं णिच् प्रत्ययं निमित्तीकृत्य भौ भवति. पश्चात् यचोयवायावः इति सन्धिसूत्रेण आव् आदेशः भवति. औकारस्य स्थाने एव आव् आदेशः भवति. अतः भाव् भावयोगः इ भावि इति नूतनधातुः. भावयति इति निजन्तयुक्तं लटीरूपम् इति विषयः. अतः अत्र कार्यक्षेत्रं बृहत् कर्तुं येन विधिस्तदन्तस्य इति सूत्रम् अपेक्षितमस्ति. न केवलम् अचीति अङ्गं, यस्य अन्तस्य आचवर्णः अस्ति तादृशधातोः ग्रहणमपि भवतु इति अर्थः आवश्यकः. अग्रे अलोन्त्यस्य इति सूत्रं दत्तमस्ति. तस्य प्रयोजनम् अत्र किम् अस्ति? नरसिंह हेग्डे महोदय भवान् वदतु. अलोन्त्यस्य सूत्रम् अत्र नास्ति चेत् का आपत्तिः?
इति सूत्रं न अस्ति चेत् तत्र कुत्र कार्यं भवति इति न अवगन्तुं शक्नुमः. तत्र यथा भूयोग अस्ति, तत्र अनन्तस्य न अस्ति चेत् तत्र भूस्थाने एव भू सम्पूर्णं गच्छति, तस्य स्थाने एव औ भवति, केवलम् औ एव तिष्ठति अनन्तस्य न अस्ति चेत्. यदि अनन्तस्य अस्ति चेत् बहु भवति, नास्ति चेत् केवलम् औ भवति.
तेन नूतनधातुः किं निष्पद्यते?
तेन नूतनधातुः अवयोग इ अनिष्टरूपं भवति.
तदेव अनिष्टरूपापत्तिः भवति. अलोन्त्यस्य इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य स्थाने एव वृद्धिः भवतु इति अलोन्त्यस्य सूत्रेण उच्यते. नो चेत् सम्पूर्ण अङ्गस्य स्थाने वृद्धिः भवति. तथा भवति चेत् अनिष्टरूपापत्तिः भवति. सम्पूर्णधातोः वृद्धिः मा भवतु इति वक्तुमेव अलोन्तस्य सूत्रम् आवश्यकमस्ति. भूधातोः प्रसङ्गे महोदयेन उक्तमासीत् भू इत्यत्र सम्पूर्णभूधातोः स्थाने तत्र वृद्धिः भवति चेत् अन्तिमं रूपं किं सिद्ध्यति? आवि नूतनधातुः आवयति इति सिद्ध्यति, न तु भावयति. एवमेव नी धातुतः नाययति इति रूपं साधनीयं. तत्र वदतु महोदय, तत्र अलोन्त्यस्य इति परिभाषासूत्रेण किं प्रयोजनमस्ति?
नीधातु तत्र अलोन्तस्य न अस्ति चेत् तत्र नाययति न भवति, आययति इति भवति. तत्र केवलं नी स्थाने ऐ भवति, अनन्तरं इ आयि इति धातु भवति, नूतनधातु आयि, अनन्तरम् आयै भवति, एच् ओ एव आययति इति भवति.
उत्तमं. नी धातोः प्रसङ्गे अथवा भूधातो एते धातवः अजन्तधातवः, तत्र अलोन्त्यस्य सूत्रं नास्ति चेत् सम्पूर्णाङ्गस्य स्थाने वृद्धिः भवति चेत् अनिष्टरूपापत्तिः भवति. सम्पूर्ण अङ्गस्य स्थाने वृद्धिः मा भवतु, केवलम् अन्तिमवर्णस्य स्थाने एव वृद्धि आदेशः भवतु इति अलोन्त्यस्य इति परिभाषासूत्रेण तादृशार्थः तत्र अपेक्षितः, आवश्यकः. अतः अलोन्त्यस्य सूत्रेण तत् कार्यं भवति. अतः एव येन विधिस्तदन्तस्य सूत्रमपि अपेक्षितं. येन विधिस्तदन्तस्य इति सूत्रेण कार्यक्षेत्रं बृहत् भवति, अलोन्त्यस्य इति सूत्रेण इष्टरूपसिद्धिः भवति. अनिष्टरूपापत्तिः मा भवतु इति तत्र आशयः. अतः अलोन्त्यस्य इति सूत्रं दत्तमस्ति. परिभाषासूत्रद्वयम् इदम् अत्र आवश्यकं, विधिसूत्रस्य कृते साहाय्यं कर्तुं विध्यर्थम् आवश्यकम्. अनियमे नियमकारिणी परिभाषा. विधिसूत्रं किं करोति? आदेशादीन् विदधाति विधिसूत्रं, खलु? आदेशादीन् विदधाति विधिसूत्रं. किन्तु सूत्रे, विधिसूत्रे स्पष्टता नास्ति, तत्र परिभाषासूत्रम् आगत्य साहाय्यं करोति. किन्तु अत्र इतोपि मुख्यविषयः कः? वृद्धिः भवति इति उक्तमस्ति. कस्य वृद्धिः भवतु इति प्रश्नः उदेति. कस्य वृद्धिः भवतु इति पूर्वं वयं सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसङ्गे किं पठितवन्तः? गुणः भवति. कस्य गुणः? इकः गुणः, इकः अङ्गस्य गुणः भवति इति वयं पठितवन्तः. तथा एव अत्रापि इकः अङ्गस्य वृद्धिः भवति वा इति प्रश्नः. इको गुणवृद्धिः इति परिभाषासूत्रम् अत्र न आयाति. इको गुणवृद्धिः इति सूत्रस्य प्रसङ्गः अत्र नास्ति. इकः अङ्गस्य वृद्धिः न भवति. अत्र किं भवति? अपवादत्वेन अत्र अजन्ताङ्गस्य वृद्धिः भवति इति स्पष्टतया ज्ञातव्यम्. अत्र इको गुणवृद्धिः इति परिभाषासूत्रस्य अपेक्षया अपवादत्वेन अजन्ताङ्गस्य वृद्धिः भवति. नरसिंहहेग्डे महोदय, भवान् इतोपि स्पष्टतया वदतु.
इको गुणवृद्धिः इति सूत्रं यत् वयं पूर्वं दृष्टवन्तः, केवलम् इक अङ्गस्य गुणात् वृद्धिः भवति इति वयं दृष्टवन्तः. परन्तु अत्र अचोणिति इति सूत्रे अच अङ्गस्य वृद्धिः भवति इति दत्तमस्ति. तत् इको गुणवृद्धिः इति सूत्रं तत् पूर्वं यत् पठितवन्तः, तस्य कार्यस्य क्षेत्रे एतत् किञ्चित् बृहत् अस्ति, अपि अपवादमस्ति अपि अस्ति तत् सूत्रस्य. अतः अत्र इक्कङ्गस्य तु भवति एव, यत् वयं दृष्टं अकारस्य आकारः भवति क्षम्यताम् इकारस्य ऐ भवति उकारस्य औ भवति इति इदानीम् अ अस्ति चेदपि तस्य गुणक गुणवर्णः आ भवति ए अस्ति चेत् ऐ भवति ओ अस्ति चेत् औ भवति इति सम्पूर्ण अच्छङ्गस्य यत्र तत्र कार्यक्षेत्रे भारत अस्ति इकोगुणवृद्धि इति सूत्रतः अचोणिति इति सूत्रात् सूत्रस्य कार्यक्षेत्रं बृहत् अस्ति.
नीलं भगिनी भवती वदतु अत्र इकोगुणवृद्धिसूत्रस्य आवश्यकता नास्ति, अपवादत्वेन अचः अङ्गस्य वृद्धिः भवति इति इतोपि स्पष्टतया वक्तव्यं, वदतु.
अहं चिन्तयामि तत्र इकोगुणवृद्धि इति यः परिभाषासूत्रमस्ति तत्र किं दत्तमस्ति, तत्र यस्मिन् विधिसूत्रे गुणकार्यम् अपि च वृद्धिकार्यम् अपेक्षितम् अस्ति यदि तस्मिन् सूत्रे स्थानी न दत्तं तत्र इकः स्थानी भवति, परन्तु अत्र तु स्थानी दत्तम् अतः अत्र इकः इको गुणवृद्धि इति सूत्रस्य आवश्यकता एव नास्ति. सो यत्र यत्र गुण अपि च विधायक सूत्रे स्थानी न दत्तं तत्र एव इको गुणवृद्धि इति सूत्रम् आगत्य तत्र सहायता करोति, अत्र तु आवश्यकमेव नास्ति. अहं
बहु सम्यक् उत्तमं तदपि वक्तव्यं. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसङ्गे त्रीणि परिभाषासूत्राणि दृष्टवन्तः खलु, यत्र यत्र स्थाने न उक्तम् अस्ति तत्र इको गुणवृद्धि इति सूत्रम् आगत्य स्थानिनः निर्देशं करोति, किन्तु अत्र अचः इति स्थाने उक्तमस्ति अतः तस्य आवश्यकता नास्ति. अग्रे नरेश महोदय द्वितीयं सूत्रम् अत उपधायाः पठित्वा वदतु.
अत उपधायाः उपधायाम् अतः वृद्धिः निति निति प्रत्यये परे अतः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं द्विपदं सूत्रम् मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचोन्निति इत्यस्मात् निति इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति अत्र दत्तमस्ति. अतः उपधायाम् उपधायाम् अतः अस्ति चेत् अपि च निति निति परे अस्ति चेत् तत् कार्यं करोति. अत्र अतः षष्ठ्यन्तम् उपधायाः षष्ठ्यन्तं तत्तु विशेषविशेषणम् अस्ति.
न न न व्याख्यानं दृष्ट्वा तत्र भिन्नार्थः अस्ति. साधु महोदय इतोपि एकः विषयः अस्ति, पूर्वस्मिन् सूत्रे समासानां प्रसङ्गे किञ्चित् दत्तमस्ति खलु, ञाच णिच णौ तत्र द्वन्द्वसमासः अस्ति, अन्ततो गत्वा इणिति इति द्व्वन्द्वगर्भ बहुव्रीहिसमासयुक्तं पदं सप्तमीविभक्त्यन्तं पदम् इणिति इति ञच णिच णौ ण्यौ इतौ यस्य तत् विग्रहवाक्यं तस्मिन् इणिति इति भवति. सप्तम्यन्तं पदमस्ति द्वन्द्वगर्भ बहुव्रीहिसमासः इत्युक्ते बहुव्रीहिसमासस्य गर्भे द्वन्द्वसमासः अस्ति. नरेश महोदय अस्मिन् प्रसङ्गे इतोपि वदतु.
तु मृजिवृद्धिः तस्य वृद्धिः अनुवृत्तिः अस्ति अपि च अचोन्निति तस्य निति तस्य अनुवृत्तिः अस्ति अङ्गस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं दत्तमस्ति अङ्गस्य उपधायाः अतः वृद्धिः निति निति सप्तम्यन्तम् अस्ति नितिः निति परे अस्ति चेत् उपधायाम् अतः अस्ति चेत् तस्य वृद्धिः भवति उपधायाम् अतः वृद्धिः भवति.
उत्तमम्. अत उपधायाः इदं सूत्रं हलन्तधातूनां प्रसङ्गे कार्यं करोति. हलन्तधातुषु उपधायां ह्रस्वकारः येषु येषु धातुषु अस्ति तेषां प्रसङ्गे इदं सूत्रं कार्यं करोति. सूत्रं तु हलन्तधातूनां प्रसङ्गे कार्यं करोति, अपि च उपधायां ह्रस्व अकारः स्यात्. अत्र अतः इति कथनेन षष्ट्यन्तमस्ति. अत् इति हलन्तशब्दः, अत् अतौ अतः एवं रूपाणि भवन्ति खलु. अत् इति कथनेन कः अर्थः वदतु?
अत् अस्ति चेत् ह्रस्व अकारः अस्ति,
तपरकरणं कृतमस्ति. तपरस्तत्कालस्य इति सूत्रेण तपरकरणं कृतमस्ति. तपरकरणेन ह्रस्व अकारस्य एव ग्रहणं भवतु इति अर्थः खलु. सूत्रार्थं वदतु पुनः.
तत्र उपधायाम् अस्ति चेत् अपि च निति तत् परे अस्ति चेत् अतः वृद्धिः भवति, अकारस्य वृद्धिः भवति.
उत्तमं. भिन्नरीत्या वक्तुमिच्छामश्चेत् अदुपधधातूनां प्रसङ्गे इदं सूत्रं कार्यं करोति खलु. अदुपधधातुषु उपधायां ह्रस्वकारः अस्ति चेत् तस्मात् परं णित् प्रत्ययः इणित् प्रत्ययः अस्ति चेत् तत् प्रत्ययं निमित्तीकृत्य उपधायां स्थितस्य ह्रस्वकारस्य वृद्धिः. ह्रस्वकारस्य वृद्धिसंज्ञकवर्णः कः? न स्वकारस्य वृद्धिसंज्ञकवर्णः
अस्ति.
अकारस्य वृद्धिसंज्ञकवर्णः आकारः. अस्य सूत्रस्य अवगमनार्थं कानिचन उदाहरणानि परिशीलयामः. पठ् इति धातुः अस्ति. पठ् धातुः कीदृशः?
पठ् हलन्तधातुः अस्ति. अत्र अत् उपधायाम् अस्ति.
प्रथमं पठ् धातुतः णिच् प्रत्ययस्य योजनेन नूतनधातुः कः वदतु?
पाठि भवति.
कथं?
तत्र अकारस्य वृद्धिः भवति पाठ, अपि च तत्र णिच् अस्ति चेत् इकार आगत पाठि भवति.
उत्तमं. पठ् धातुः अदुपधधातुः, तस्मात् परं णिच् इति प्रत्ययः अस्ति. णिच् सनादिप्रत्ययेषु अन्यतमः. सनादिधातुप्रत्ययानां योजनेन नूतनधातोः निर्माणं भवति. पाठि इति नूतनधातुः, पाठयति इति णिजन्तयुक्तं लटीरूपम् अस्ति. अत्र पठ् धातोः परं णिच् प्रत्ययः प्रेरणार्थे विहितः भवति, न तु स्वार्थे. पठ् धातुतः णुवल् इति प्रत्ययस्य योजनेन पाठकः इति रूपं सिद्ध्यति. तत्र किं किं भवति वक्तुमिच्छति वा?
आम्, पठ् तत् अत् उपधायाम् अत् अस्ति चेत् तत्र वृद्धिः भवति पाठ, अपि च किं पाठकः रूपं नित् अस्ति चेत् तत्र एकार पाठि भवति, अपि च तत्र किं युवोर्नाकौ सूत्रे तत्र वु नूल् अस्ति चेत् तत्र भू स्थाने अक आगतः, अतः पाठक भवति. प्रातिपदिकं पाठक, पुल्लिङ्गे पाठकः भवति.
उत्तमम्. एकः अन्यधातुः अस्ति वद्. वद् धातुतः वादि नूतनधातोः निर्माणं भवति णिच् योजनेन. वादयति इति निजन्तरूपमस्ति. वद् धातुतः प्रेरणार्थे णिच् प्रत्ययस्य योजनेन वादि नूतनधातुः वादयति इति णिजन्तरूपं. वद् धातुतः णुवल् योजनेन वादकः इति णुवल्लन्तं रूपं सिद्ध्यति. चल् धातोः प्रसङ्गे वदतु भवान्.
चल् तदपि अत् उपधायाम् अस्ति चल् चाल भवति निच् प्रत्यय चालि चालि तत्र अद चालि तत्र चालि चालयति भवति
उत्तमम् चलधातुः अपि अदुपधधातुः चाली नूतनधातुः णिजन्तधातुः चालयति इति णिजन्तयुक्तं लटीरूपम् अस्ति चालकः णुवुल्लन्तं रूपम् अस्ति पाठयति वादयति चालयति इत्यादिषु णिच् प्रत्ययः प्रेरणार्थे विहितः भवति एते धातवः चुरादिगणीयधातवः न सन्ति एते धातवः भिन्नभिन्नगणेषु सन्ति किन्तु तत्र प्रेरणार्थे णिच् विहितः भवति अतः तादृशं रूपं सिद्ध्यति एते धातवः अदुपधधातवः चुरादिगणे एकः धातुः अस्ति क्षल् क्षल् इति धातुः अस्ति तत्र स्वार्धिकणिच् विधीयते इत्युक्ते चुरादिगणीयधातुषु स्वार्धे अपि णिच् प्रत्ययः विहितः भवति क्षल् धातुतः क्षालि इति णिजन्तधातुः सिद्ध्यति क्षालयति इति रूपं सिद्ध्यति इत्युक्ते अन्येषु गणेषु प्रेरणार्थे णिच् विहितः भवति किन्तु चुरादिगणे स्वार्धे अपि णिच् विहितः भवति चुरादिगणीयधातूनां प्रसङ्गे स्वार्धिकणिजन्तरूपं प्रेरणार्थकणिजन्तरूपं समानं वाक्यस्य अर्धम् अनुसृत्य अथवा आश्रित्य वयम् अवगन्तुं शक्नुमः एतावत्पर्यन्तं सूत्रावगमनार्थम् उदाहरणानि परिशीलितवन्तः सूत्रार्थः कः इति इतोपि स्पष्टतया ज्ञातव्यम् अत्र किमर्थं येन विधिस्तदन्तस्य अपि च अलोन्तस्य परिभाषासूत्रयोः आवश्यकता नास्ति किमर्थं येन विधिस्तदन्तस्य परिभाषासूत्रस्य कार्यम् अथवा तस्य अवसरः अत्र अस्ति वा नास्ति वा नास्ति चेत् किमर्थं नास्ति
अत्र तु उपधायाम् अस्ति अतः येन विधिस्तस्य सूत्रम् आवश्यकं नास्ति
अत्र इतोपि किञ्चित् ज्ञातव्यं किं ज्ञातव्यम् इत्युक्ते एकवारम् अनुवृत्तिसहितसूत्रं पश्यन्तु अङ्गस्य उपधायाः अतः वृद्धिः इणिति इति लिखितमस्ति अङ्गस्य उपधायाः द्वयोर्मध्ये कीदृशसम्बन्धः अस्ति इति प्रश्ने सति अत्र विशेषणविशेष्यभावः नास्ति अत्र किमस्ति अवयव अवयवीभावः अस्ति अवयव अवयवीभावः इत्युक्ते किं शरीरस्य अपि च अवयवस्य द्वयोर्मध्ये यः सम्बन्धः अस्ति तादृशसम्बन्धः अत्र अङ्गस्य उपधायाः द्वयोर्मध्ये अस्ति मम हस्तः मम शरीरं मम शिरः मम नाशिका इत्यत्र यादृशसम्बन्धः अस्ति तादृशसम्बन्धः अवयव अवयवीभावसम्बन्धः अत्र अस्ति अत्र अवयवः कः अवयवी कः वदतु
अवयव अङ्गस्य अङ्गस्य उपधायाः अवयवी भावः
नीलं भगिनी भवती वदतु अत्र अवयवी कः अवयवः कः अङ्गस्य उपधायाः तत्र
अहं चिन्तयामि अत्र अङ्गस्य यः अस्ति सः सम्पूर्णं भागम् उपधायां तु तस्मिन् यः एकं भागः सः इति स्थानम् अस्ति सो तत्र अवयवी यः अस्ति सः उपधाय
उत्तमम् अवयवी इति वदामि तत्र प्रातिपदिकं किमस्ति सुन्दरमहोदय भवान् वदतु अवयवी
नकारान्तप्रातिपदिकम् अवयविन् इति प्रातिपदिकम् अस्ति नकारान्तप्रातिपदिकं तत्र उपायाः इति अवयवः एवम् अङ्गस्य इति अवयवी भवति
उत्तमम् अत्र अवयवी इति कथनेन अर्थः कः
अवयवी इत्युक्ते यस्य अवयवः अस्ति सः एव अवयवी
उत्तमम् गुणी इति कथनेन कः अर्थः
यस्य गुणः अस्ति सः एव गुणी
ज्ञानी इत्युक्ते कः
यस्य ज्ञानम् अस्ति सः एव ज्ञानी अस्ति.
उत्तमम्. तत्र इनि इति एकः प्रत्ययः अस्ति, अत इनि ठनौ इति एकं सूत्रमस्ति. तद्धितप्रत्ययः प्रातिपदिकं स्वीकृत्य इनि तद्धितप्रत्ययस्य योजनेन ज्ञानी, गुणी, योगी, अवयवी इत्यादीनि पदानि सिद्ध्यन्ति. सम्पूर्णभागः अङ्गमस्ति, तस्य अवयवः उपधा अस्ति. अनयोः पदयोः मध्ये अङ्गस्य उपधायाः. यद्यपि एतत् पदद्वयं षष्ट्यन्तपदद्वयमेव, किन्तु अत्र विशेषणविशेष्यभावः नास्ति. कथं जानीमः? व्याख्यानं दृष्ट्वा गुरुमुखतः एव अहमपि अवगतवती. अत्र अवयव अवयवीभावः अस्ति. शरीरस्य अवयवस्य यः सम्बन्धः अस्ति तादृशसम्बन्धः अत्र अस्ति. अङ्गस्य उपधायाः द्वयोर्मध्ये एवमेव. उपधायाः अतः अत्र इतोपि षष्ट्यन्तपदद्वयमस्ति. उपधायाः अतः एतत् पदद्वयमपि षष्ट्यन्तपदद्वयमेव. अत्रापि सम्बन्धषष्ठी अस्ति इति कारणतः
उपधायां स्थितस्य अत्वर्णस्य इति अर्थः.
अत्र विशेषणविशेष्यभावः नास्ति इत्यतः येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता नास्ति. यत्र यत्र विशेषणविशेष्यभावः द्वयोर्मध्ये उच्यते तत्र एव येन विधिस्तदन्तस्य इति सूत्रस्य आवश्यकता भवति. विशेषणविशेष्यभावेन अभेदत्वम् उच्यते. यत्र यत्र तादृश अभेदत्वम् अस्ति तत्र येन विधिस्तदन्तस्य सूत्रस्य आवश्यकता अस्ति. किन्तु अत्र अवयव अवयवीभावः अस्ति इत्यतः येन विधिस्तदन्तस्य परिभाषासूत्रस्य आवश्यकता नास्ति. अलोन्त्यस्य सूत्रस्य आवश्यकता अपि नास्ति. किमर्थं भवान् वदतु सुन्दरमहोदय?
अलोन्त्यस्य इति सूत्रं किं वदति? सः स्थाने अन्तिमवर्णस्य स्थाने वृद्धिः इति वदति, स्थानं वदति. परन्तु अत्र सूत्रस्य अन्ते एव स्थानं निर्दिष्टः. किमर्थं चेत् अतः वृद्धिः इति स्पष्टतया लिखितः सूत्रस्य अन्ते एव. अतः अत्र अलोन्त्यस्य इति अन्यत् सूत्रस्य आवश्यकता नास्ति.
उत्तमम्. अत्र सूत्रे एव उक्तमस्ति अलोन्त्यस्य परिभाषासूत्रस्य आवश्यकता नास्ति. अग्रिमं सूत्रं परिचितमेव, भवान् पठतु. सार्वधातुक अर्धधातुकयोः.
सार्वधातुक अर्धधातुकयोः सप्तमाध्याये तृतीयपादे चतुर्थाधिक अशीतितमं सूत्रं. सार्वधातुक अर्धधातुकयोः परयोः इगन्तस्य अङ्गः इगन्तस्य अङ्गस्य इकः गुणः स्यात् इत्युक्ते सार्वधातुकप्रत्ययः वा अथवा आर्धधातुकप्रत्ययः वा ते परे स्थिति इत्युक्ते तत्र षष्टिविभक्ति अस्ति तः सः न षष्टि न सप्तमी विभक्ति अस्ति. सार्वधातुक अर्धधातुकयोः परयोः यदि सः परः अस्ति एतत् द्वयं सार्वधातुक वा अर्धधातुक वा प्रत्ययद्वयं परः अस्ति चेत् तस्य अङ्गस्य इगन्तस्य अङ्गस्य इक् वर्णस्य गुणः स्यात् इति सूत्रं वदति.
अस्मिन् प्रसङ्गे त्रीणि परिभाषासूत्राणि पूर्वं पठितानि. सार्वधातुकार्धधातुकयोः प्रसङ्गे कस्य गुणः भवति, कुत्र गुणः भवति, कस्य गुणः भवति इति अवगन्तुम् इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य इकः अङ्गस्य गुणः भवति इति वदति. अपि च कुत्र भवति, अन्तिमवर्णस्य अन्तिम अल्वर्णस्य वृद्धिः भवति इति अलोन्तस्य इति परिभाषासूत्रेण उच्यते. तत्रापि येन विधिस्तदन्तस्य इति परिभाषासूत्रम् आवश्यकमस्ति. एतत् सर्वं पठितमेव. तस्मिन् प्रसङ्गे त्रीणि परिभाषासूत्राणि पठितानि. अग्रिमं सूत्रं पुगन्तलघुपदस्य च, पठतु भवानेव.
पुगन्तलघुपदस्य च इति सूत्रं सप्तमाध्याये तृतीयपादे षष्ट्यधिक षष्टाधिक अशीतितमं सूत्रं. सार्वधातुक अर्धधातुकयोः परयोः उगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात् इति सूत्रं वदति. अत्र सार्वधातुक अर्धधातुकयोः परयोः इति सप्तमी विभक्तिः. पुगन्तस्य लघुपदस्य च इति षष्टि विभक्त्यन्तम्. अङ्गस्य इत्यपि षष्ट्यन्तमेव. इकः इत्युक्ते तदपि षष्ट्यन्तं पदम्. गुणः प्रथमा विभक्तिः स्यात्. ओके. यदि सार्वधातुक आर्धधातुक प्रत्यययोः परयोः सत्योः इत्युक्ते
महोदय अत्र विषयद्वयमस्ति. लघुपदम् अङ्गमस्ति चेत् इकः गुणः भवति, पुगन्तम् अङ्गम् अस्ति चेदपि इकः गुणः भवति. पुगन्तम् अङ्गं कथं सिद्ध्यति जानाति चेत् वदतु.
पुगन्तम् अङ्गं कथं सिद्ध्यति? पुक् अङ्गे यस्य सः इति पुगन्तम् अङ्गम्. अत्र अङ्गकार्यं भवति चेत् यदि पुक् आगमः भवति चेत् कुत्र पुक् आगमः भवति? यत्र पाठयति, यत्र अर्तिर्व्ली क्लि इति षष्ट धातवः सन्ति. अर्तिर् ह्री व्ली क्लि इति षष्टः धातवः,
षड्धातवः
सन्ति ते. अपि च निजन्तम् अस्ति चेत् नित् परे सति अपि पुक् आगमः भवति. तत्र पुक् आगमः भवति. तत्र पुक् आगम इत्युक्ते दापयति, धातोः आकारान्तधातो धातवः अस्ति. अपि च षड् धातवः, एते षड् धातवः सन्ति अथवा आकारान्तधातवः सन्ति चेत् तस्य पुक् आगमः सन्ति. निचि ओके. तत्र दा योगे णिच् परे दापि इति भवति. दापि इति पुक् आगमः भवति, वृद्धिः भूत्वा वृद्धिः न भवति. दापि इति पुक् आगमः भवति, पुक् प्रत्ययस्य आगमः भवति. दापि योगे अयोगेति दापयति इति अन्तिमं रूपं सिद्ध्यति. तदेव पुक् आगमः.
णिजन्तानां प्रसङ्गे एतत् सर्वं पठामः. णिच् प्रत्ययस्य योजनेन कुत्रचित् केषुचित् धातुषु पुक् आगमः भवति. णिजन्तानां प्रसङ्गे तत् कार्यं भवति. सूत्रमस्ति अर्ति ह्रि व्लीक् नु ईक्ष्मायातां पुङ्नौ इति सूत्रमस्ति. अर्ति ह्रि व्लीक् नु इत्युक्ते तस्मिन् सूत्रे केचन धातवः उक्ताः, स्पष्टतया भिन्नभिन्नधातवः उक्ताः. अपि च सूत्रस्य अन्तिमभागे आकारान्तानां योजनमपि कृतमस्ति. आताम् इति उक्तमस्ति. आताम् इति कथनेन आकारान्तधातूनाम् इदं सूत्रं कार्यं करोति. निच् प्रत्यये परे पुक् आगमः भवति इति अर्थः. स्थाधातोः रूपं स्थापयति, दा अस्ति चेत् दापयति, धा अस्ति चेत् धापयति. एवम् आकारान्तानां प्रसङ्गे पुक् आगमः भवति. इतोपि अस्मिन् सूत्रे केचन धातवः सन्ति खलु, ह्री व्ली क्री व्ली ह्री, एते धातवः सन्ति. व्ली इति धातुः अस्ति. व्ली इति कीदृशधातुः? दीर्घ ईकारान्तधातुः. तस्मिन् प्रसङ्गे अपि णिच् प्रत्यये परे पुगन्तम् अङ्गं सिद्ध्यति. पुक् आगमः भूत्वा व्लीप् इति पुगन्तम् अङ्गं सिद्ध्यति. व्लीप् इति कथनेन पकारात् पूर्वम् ईकारः अस्ति, लघुपदम् अङ्गं तत्र नास्ति. पुगन्तलघुपदस्य च इति सूत्रं कार्यं कर्तुं लघुपदम् अङ्गम् आवश्यकं, किन्तु व्लीप् ह्रीप् इति कथनेन तत्र कथं गुणकार्यं भवति? लघुपदम् अङ्गं नास्ति खलु. तदर्थं तस्मिन् सूत्रे स्पष्टतया केचन धातवः उक्ताः, तेषां प्रसङ्गे यद्यपि लघुपदम् अङ्गं नास्ति तथापि तत्र पुगन्तमङ्गमस्ति इति कारणतः पुगन्तलघुपधस्य च इति सूत्रेण तत्र गुणकार्यं भूत्वा व्लीप् इत्यत्र व्लेपयति, ह्रीप् अस्ति चेत् ह्रेपयति इत्यादीनि निजन्तरूपाणि साधयितुं शक्नुमः. इत्युक्ते पुगन्तलघुपधस्य च इति सूत्रं न केवलं लघुपद अङ्गानां कृते कार्यं करोति, पुगन्तम् अङ्गमस्ति चेदपि अनेन सूत्रेण गुणकार्यं भवति. किन्तु पुगन्तम् अङ्गं कुत्र सिध्यति इत्युक्ते एतेषां धातूनां प्रसङ्गे णिच् प्रत्यये परे पुगन्तम् अङ्गं सिध्यति. अस्तु, अग्रे सरेम
भगिनि. अत्र एकः प्रश्नः, अस्मिन् सूत्रे याताम् इति अस्ति,
आताम्
आताम् इत्यनेन आकारान्तधातुः विवक्षितः वर्तते, तत्र शिरादिगणे आकारान्तधातुः अस्ति वा?
वदतु.
शिरादिगणे आकारान्तधातुः वर्तते वा? दा इति उदाहरणं दत्तमस्ति.
दाधातोः रूपं दधाति जुहोत्यादिगणे खलु?
ददाति इति जुहोत्यादिगणे, दापयति इति अपि अस्ति खलु रूपम्?
अहं कस्मिन् प्रसङ्गे वदन्ती अस्मि इत्युक्ते दा धातुः धा धातुः जुहोत्यादिगणे अस्ति, अणिजन्तरूपं ददाति, धा अस्ति चेत् दधाति. तयोः प्रसङ्गे प्रेरणार्थगणिच् प्रत्ययं योजयितुमिच्छामश्चेत् तत्र प्रेरणार्थे णिच् प्रत्ययस्य योजनेन दा धातुतः दापयति इति रूपं सिध्यति. यथा मया पूर्वम् उक्तं, णिच् प्रत्ययः चुरादिगणे स्वार्थे अपि विधीयते, प्रेरणार्थे अपि विधीयते, किन्तु अन्येषु गणेषु केवलं प्रेरणार्थे एव विधीयते. दा धातुः जुहोत्यादिगणे अस्ति चेदपि प्रेरणार्थगणिच् प्रत्यये परे हेतुमती च इति सूत्रेण प्रेरणार्थगणिच् विधीयते. धातुः आकारान्तधातुः अस्ति इत्यतः पुक् आगमः भूत्वा अनेन सूत्रेण एव अर्ति हिरि व्लीक्नोयि क्ष्मायि आतां पुङ्नौ, तत्र सन्धिकार्याणि सन्ति, अतः क्ष्मायातां इति लिखितमस्ति. उत्तमं. सार्वधातुकम् अपित्. सुजाता भगिनी, सूत्रं किं वदति, वदतु.
सार्वधातुकम् अपित्, सार्वधातुकं यत् पित् सार्वधातुकं यद् पित् तद् नित्वत् व्यवहरति. सार्वधातुकं प्रत्ययस्य अपि तत् अस्ति चेत् तद् निद्वत् व्यवहरति. नित्प्रत्ययस्य अच्च अपित् प्रत्ययस्य आरोपितं भवति.
अपित् इति उक्तवती, अपित् इति कथनेन कः अर्थः?
अपित् पित् नास्ति.
पित् नास्ति इत्युक्ते
शप् प्रत्ययस अस्ति चेत् पित् अस्ति, अपित् अस्ति विकरणप्रत्ययस्य शित् पित् अस्ति चेत् गुणः भवति, अपित् अस्ति चेत् गुणः न भवति, नित्वत् व्यवहरति.
उत्तमम्. पकारः इति संज्ञकः नास्ति इति अर्थः. अपित् इत्युक्ते यस्मिन् प्रत्यये पकारः इति संज्ञकः नास्ति सः एव अपित् प्रत्ययः. भिन्नरीत्या वक्तुमिच्छामश्चेत् यस्मिन् सार्वधातुकप्रत्यये पकारः इति संज्ञकः नास्ति सः प्रत्ययः नित्वत् प्रवर्तते. एतादृशी स्थितिः कुत्र वयं दृष्टवन्तः?
दिवादिगणे यदा तु विकरणप्रत्ययः शन् अस्ति तत् अपित् अस्ति इत्यनेन गुणः न भवति.
उत्तमम्. दिवादिगणे ष्यन् इति गणविकरणप्रत्ययः आयाति. षन् विकरणप्रत्यये षकारः इति संज्ञकः षित्वम् अस्ति, किन्तु पकारः इति संज्ञकः नास्ति इत्यतः अपित् प्रत्ययः. ष्यन् विकरणप्रत्ययः सार्वधातुकप्रत्ययः, षित्वात् सार्वधातुकः, किन्तु अपित्वात् सः प्रत्ययः नित्वत् व्यवहरति. सार्वधातुकम् अपित् इति सूत्रम् अतिदेशसूत्रं, यस्य स्वभावः तादृशः नास्ति नूतनस्वभावः तस्मिन् प्रत्यये अध्यारोप्यते. ष्यन् इति विकरणप्रत्यये यद्यपि साक्षात् ङित्वं नास्ति तथापि सः प्रत्ययः नित्वत् प्रवर्तते. अस्मिन् प्रत्यये नित्वादेशः भवति, नित्वादेशस्य प्रयोजनानि सन्ति. भवती जानाति वा?
नित्वात् व्यवहरति इत्यनेन गुणः न भवति
इति एकं प्रयोजनं. नित्वादेशः भवति चेत् नित्वस्य अतिदेशः सार्वधातुकम् अपि इति अतिदेशसूत्रं. नित्वस्य अतिदेशः भवति चेत् क्निति च सूत्रेण गुणनिषेधः भवति इति एकं प्रयोजनम्. अन्यानि प्रयोजनानि सन्ति, वक्तुमिच्छति वा?
न जानामि भगिनि.
नित्वस्य प्रयोजनानि सन्ति. किमर्थं नित्वत् व्यवहरति इति प्रश्ने सति नित्वस्य अतिदेशेन कानिचन प्रयोजनानि सन्ति. सम्प्रसारणं भवति. एकं सूत्रमस्ति गृहिज्या वै व्यधि अष्टि विचति इति एकं बहुदीर्घं सूत्रमस्ति. तेन सूत्रेण केषुचित् धातुषु णित् प्रत्यये परे सम्प्रसारणकार्यं भवति. णित्वत् प्रवर्तते चेत् णित्वम् अधिकृत्य णित्वम् आधारीकृत्य केषुचित् धातुषु सम्प्रसारणकार्यं भवति. अपि च अनिदितां हल उपधायाक्निति इति एकं विशिष्टं सूत्रमस्ति. अनिदित् धातुषु उपधायां स्थितस्य नकारलोपः भवति नित् प्रत्यये परे. पूर्वं वयम् एकस्मिन् करपत्रे दृष्टवन्तः बन्धधातुः, बन्धधातोः प्रसङ्गे किं दृष्टवन्तः? बन्धधातुः अनिदित् धातुः. बन्धधातोः नकारः अस्ति किन्तु सः धातुः इदित् नास्ति. अनिदित् धातुः इत्युक्ते तस्मिन् धातौ ह्रस्वैकारः इति संज्ञकः नास्ति. अनिदित् धातुः किन्तु तस्मिन् धातौ बन्धधातौ नकारः अस्ति. धातुः अनिदित् धातुः. तादृशधातुषु णित्वस्य अतिदेशेन नकारलोपः भवति इति अवगन्तुं बन्धधातुतः बध्नाति इति रूपं सिध्यति. वदतु तत्र किमस्ति? क्रियादिगणे अस्ति. क्रियादिगणे श्ना इति विकरणप्रत्ययः अस्ति.
क्रियादिगणे अस्ति इत्यनेन बन्धयोगः श्ना विकरणप्रत्ययः अस्ति. ति भवति स्ना विकरणप्रत्ययस्य शकारस्य इत्संज्ञा भवति न एव अवशिष्यते. बन्ध योगः न योगः ति भवति. न बन्ध इत्यस्य नकारस्य लोपः भवति. बध्नात् अनिन्दितां हलोपदायाम् इत्यनेन नकारस्य लोपः भवति. बध्नाति भवति.
बहु सम्यक्. बन्धधातुः क्रियादिगणे अस्ति, नवमे गणे अस्ति. तत्र लटीरूपं साधयितुम् इच्छामः. लटीरूपमस्ति बध्नाति. बध्नाति इत्यत्र बन्धयोगः श्नायोगः ति इति स्थितिः अस्ति. बन्ध इत्यत्र धातुः अनिदित् धातुः अस्ति. बन्धधातोः परं श्ना इति विकरणप्रत्यये सार्वधातुकप्रत्ययः शित् प्रत्ययः अस्ति. किन्तु श्ना इत्यत्र पित्वं नास्ति, अपित् प्रत्ययः. अतः श्ना इति सार्वधातुक अपित् प्रत्यये णित्वम् अध्यारोप्यते सार्वधातुकम् अपित् इति सूत्रेण. तस्मिन् प्रत्यये णित्वस्य अतिदेशेन तादृश नित् प्रत्यये परे नित्वम् अध्यारोप्यते खलु. अतः नित् प्रत्यये परे अनिदितां हल उपधाया क्निति इति सूत्रेण नकारलोपः भूत्वा बन्ध इत्यस्य रूपं बद्ध भवति. बद्ध योगः नायोगः ति. बध्नाति इति लटीरूपम् अस्ति. किन्तु बद्धः, बद्धवान्, बद्ध्वा इत्यादिषु कित् प्रत्ययः साक्षात् अस्ति इति कारणतः तत्रापि नकारलोपः भूत्वा बन्धधातोः रूपमेव बद्धः, बद्धवान्, क्त्वान्तरूपं बद्ध्वा इत्यादिषु अपि साक्षात् कित् प्रत्ययः परः अस्ति इति कारणतः अनिदितां हल उपधाया क्निति इति सूत्रेण नकारलोपः भूत्वा बद्ध भवति. किन्तु बन्धनम् इत्यत्र नकारलोपः न भवति. किमर्थम्?
बन्धनं लुट् प्रत्ययः अस्ति न बन्धनम् इत्यनेन.
उत्तमं. ल्युट् प्रत्ययः कित् नित् नास्ति खलु. तत् सूत्रम् अनिदितां हल उपधाया क्निति इति सूत्रं क्निति इति उक्तमस्ति खलु. कित् नित् प्रत्यये परे एव नकारलोपः भवति. किन्तु ल्युट् प्रत्ययः कित् नित् नास्ति. अतः तत् सूत्रं कार्यं न करोति. अनिदितां हल उपधाया क्निति इति सूत्रेण नकारलोपः ल्युट् प्रत्यये परे न भवति. अतः बन्धधातोः रूपं ल्युडन्तरूपं बन्धनं तावदेव. क्निति च सूत्रं किं वदति? वदतु.
क्निति च सूत्रं यः प्रत्ययः गित् नित् अथवा गित् कित् नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, गुणः वृद्धिः न भवति। क्निति च यः प्रत्ययः कित् कित् नित् अस्ति तत् प्रत्ययनिमित्तीकृत्य इकः स्थाने गुणः गुणः भवितुम् अर्हति तत् न भवति।
अत्रापि इको गुणवृद्धि इति परिभाषासूत्रस्य आवश्यकता अस्ति, इकः स्थाने गुणः वृद्धिः वा न भवति। अग्रे अभ्यासः अस्ति। शुभदा भगिनी, भवती अग्रे किं लिखितं पठतु अभ्यासः इत्यत्र?
अभ्यासः प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु। लट् लकारस्य प्रथमपुरुषैकवचनान्तरूपं क्ता त्वा प्रत्ययान्तरूपं, णिच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमैकवचनान्तरूपं, तुमुन् प्रत्ययान्तं रूपं। प्रत्येकस्यां स्थितौ धातुः कीदृशः, इगन्तधातुः वा इगन्तभिन्नः, इगन्तभिन्न अजन्तधातुः वा, लघु इगुपदधातुः वा अदुपदधातुः वा, अपि च प्रत्ययः कीदृशः, सार्वधातुकं पित् सार्वधातुकं कम् अपित्, आर्धधातुकं कित्ङित् आर्धधातुकं यित्णित् आर्धधातुकं कित्ङित् यित्णित् भिन्नः इति वक्तव्यम्। तत्र एकमेकं धातुं स्वीकृत्य तस्य लट् लकारस्य क्त्वान्तरूपं, णिच् णिजन्तरूपं वक्तव्य एतानि रूपाणि वक्तव्यानि। लट् लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं, तुमुन् प्रत्ययान्तरूपम् अस्तु।
आदाय इति लिखितमस्ति, किं रूपम्?
तत्तु आ इति दा इति धातुः, दा इति धातुः तस्य आ उपसर्गपूर्वकं दा धातुः तस्य ल्यबन्तरूपम् आदाय इति भवति।
परिशील्य कीदृशं रूपम्?
परिशील्य परि उपसर्गपूर्वकः शी इति धातुः वा शील इति धातुः तस्य ल्यबन्तरूपम्।
निष्पादयतु इति कीदृशं रूपम्?
निष्पादयतु निस् उपसर्गपूर्वकः पदधातुः, णिजन्ते लोटि प्रथमपुरुष एकवचनं।
बहु सम्यक्। प्रत्येकम् एकम् एकं प्रति इति विग्रहवाक्यमस्ति, तत्र समासः अस्ति, अव्ययीभावसमासः अस्ति, एकम् एकं प्रति। अत्र त्रीणि रूपाणि साधनीयानि। अधोभागे केचन धातवः दत्ताः। त्रीणि रूपाणि इत्युक्ते लट्लकारप्रथमपुरुषे एकवचनरूपं साधनीयं। लट्लकारप्रथमपुरुषे एकवचनरूपम् इत्युक्ते प्रक्रिया का?
लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं, तत्र प्रथमं तु धातुः
कीदृशप्रक्रिया अस्ति? प्रक्रिया चतुर्धा भवति खलु, सार्वधातुकप्रक्रिया, आर्धधातुकप्रक्रिया, सुबन्तप्रक्रिया, तद्धितप्रक्रिया, तावदेव। प्रक्रिया चतुर्धा भवति। लट्लकारप्रथमपुरुषे एकवचनरूपा सिद्धिः इत्युक्ते कीदृशी प्रक्रिया अस्ति?
तत्तु सार्वधातुकप्रक्रिया अस्ति।
क्त्वा प्रत्ययान्तरूपम् इति कथनेन प्रक्रिया कीदृशी अस्ति?
क्त्वान्त इत्युक्ते क्त्वा इति आर्धधातुकप्रत्ययः अस्ति, अनुबन्धलोपे त्वा इति अवशिष्यते। त्वान्त त्वा इति आर्धधातुकम् अस्ति, तिंशित् भिन्नः अस्ति इति कृत्वा आर्धधातुक अस्ति।
आर्धधातुककृदन्तरूपसिद्धिः खलु?
आमाम्।
उत्तमम्। निच् प्रत्ययान्तधातोः निर्माणम् इति कथनेन प्रक्रिया कीदृशी अस्ति?
णिच् प्रत्ययान्त धातोः तत्र प्रयोजक धातुरूपाणि वयं तत्र तस्य
णिच् प्रत्ययः कीदृशः?
हा, णिच् इति पुनः अर्धधातुकप्रत्ययः
इत्युक्ते णिच् प्रत्ययस्य विधानम् अर्धधातुकप्रक्रियायाम् अन्तर्भूतं खलु? णिच् प्रत्ययस्य योजनेन णिजन्तरूपसिद्धिः इति अर्धधातुकप्रक्रिया भवति. अपि च तुमुन्नन्तं रूपं साधयतु इति लिखितमस्ति. तुमुन् कीदृशप्रत्ययः? तुमुन्नन्तरूपसिद्धिः कीदृशी प्रक्रिया?
पुनः तुमुन् इति अर्धधातुकप्रत्ययः एव, अतः तुमुन् प्रत्ययान्तरूपं साधनीयं चेत् तत्र अर्धधातुकप्रक्रिया एव वयं प्रयोक्तव्या.
प्रक्रिया एव प्रयोक्तव्या. उत्तमं. क्त्वा प्रत्ययः अपि अर्धधातुकप्रत्ययः. क्त्वान्तरूपसिद्धिः अर्धधातुककृदन्तरूपसिद्धिः. णिच् प्रत्ययस्य विधानमपि णिच् प्रत्ययस्य रूपसिद्धौ प्रथमतया अर्धधातुकप्रक्रिया आयाति, पश्चात् यदा शपायाति तदा पुनः तत्र सार्वधातुकप्रक्रिया इति वदामः. यावत्पर्यन्तं नूतनधातोः निर्माणं भवति, नूतननिर्जन्तधातोः निर्माणं भवति, तावत्पर्यन्तमेव अर्धधातुकप्रक्रिया. अग्रे गत्वा सार्वधातुकप्रक्रिया आयाति. तुमन्नन्तरूपसिद्धिः अपि अर्धधातुककृदन्तरूपसिद्धिः इति वदामः. आहत्य अत्र चत्वारि रूपाणि साधनीयानि. अर्धधातुकप्रक्रियाम् उपयुज्य कानिचन रूपाणि, सार्वधातुकप्रक्रियाम् उपयुज्य लट्लकार प्रथमपुरुषे एकवचनरूपं साधनीयम्. प्रत्येकस्यां दशायां धातुः कीदृशः? धातुः कीदृशः इत्युक्ते इगन्तधातुः वा, इगन्तभिन्न अजन्तधातुः वा, लघु इगुपधधातुः वा, अदुपधधातुः वा इति लिखितमस्ति. इगन्तधातुः अस्ति चेत् किं भवति?
इगन्तधातोः अन्ते इक् इक् इति वर्णः, इक् इक् इगन्त इक् प्रत्याहारस्य वर्णः धातोः अन्ते श्रूयते. इक् इत्युक्ते इ उ ऋ ऋ इति वर्णाः तत्र अन्तर्भूताः. अतः धातोः अन्ते यदा इकारान्त उकारान्त वा ऋकारान्त वा वर्णः अस्ति चेत् तत्र इगन्तधातुः इति वक्तुं शक्यते.
तदा किं भवति? सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवितुं शक्नोति. इगन्तभिन्न अजन्तधातुः इति कथनेन कः अर्थः?
इगन्तभिन्न अजन्तः, अजन्त इत्युक्ते इगन्तभिन्नः, तस्मिन् अकारान्त अदन्तधातुः अपि च एजन्तधातवः, एजन्तधातवः अन्तर्भूताः सन्ति. एजन्तधातवः अपि च आकारान्तधातवः, धातवः अपि अदन्त अकारान्त इति वक्तुं शक्यते. अकारान्त इत्युक्ते अकारान्त आकारान्त इति धातवः, अपि च एजन्तधातवः यस्य पुनः आदेश उपदेशेशिति इत्यनेन आकारान्त एव भवति. आहत्य अकारान्त आकारान्तधातवः इति वक्तुं शक्यते.
इगन्तभिन्न अजन्तधातूनां प्रसङ्गे उक्तवती. इगन्तभिन्न अजन्तधातूनां प्रसङ्गे णित् णित् प्रत्यये परे वृद्धिः भवति. लघु इगुपधधातुः अस्ति चेत् किं भवति?
लघु इगुपधधातुः उपधायां यदा लघु इक् वर्णः अस्ति, उपधायां यदा लघु इक् इत्युक्ते लघु ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः इति इति वर्णाः सन्ति चेत् तत् सः धातुः लघु इगुपधधातुः इति इति उच्यते. तत्र पुगन्तलघुपधस्य च इत्यनेन गुणः, उपधायां गुणः सम्भवति.
अदुपधधातुषु णित् णित् प्रत्यये परे किं भवति?
तत्र अत्त उपधायाः इति सूत्रेण उपधायाः दीर्घः भवति इति मन्ये.
इत्युक्ते वृद्धिः भवति. एतावत्पर्यन्तं धातवः कीदृशाः इत्युक्ते प्रत्येकस्यां स्थितौ धातुः कीदृशः? इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु इगुपधधातुः, अदुपधधातुः अस्ति चेत् तादृशधातोः परं प्रत्ययः कीदृशः? प्रत्ययः सार्वधातुकपित् अस्ति चेत् किं भवति?
सार्वधातुक पित् प्रत्ययः अस्ति चेत् सार्वधातुकार्धधातुकयोः इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति. प्रत्ययः सार्वधातु अपि च लघु इगुपधधातोः प्रसङ्गे पुगन्तलघुपधस्य च इत्यनेन उपधायाः अपि गुणः भवति.
सार्वधातुक पित् प्रत्ययः अस्ति चेत् गुणः भवति. सार्वधातुक अपित् प्रत्ययः अस्ति चेत्?
अपित् प्रत्ययः अस्ति चेत् ङित्वत् व्यवहरति. सार्वधातुकम् अपित् इति आतिदेशिकसूत्रं ङित्वत् भवति इति कारणात् किङिति च इत्यनेन तस्य गुणवृद्धिनिषेधः भवति.
प्रत्ययः आर्धधातुकः कित् ङित् अस्ति चेत् किं भवति?
आर्धधातुकं कित् ङित् अस्ति चेदपि तथैव गुणवृद्धिनिषेधः भवति.
उत्तमं. सार्वधातुक अपित् प्रत्यये परे यादृशं कार्यं भवति तादृशं कार्यमेव आर्धधातुक कित् ङित् प्रत्यये परे भवति. इत्युक्ते कार्यसाम्यम् अस्ति, अत्र गुणवृद्धिनिषेधः भवति खलु?
आमाम्.
आर्धधातुकम् इणित् ङित् प्रत्यये परे किं भवति?
आर्धधातुकं यत् ङित् अस्ति चेदपि अजन्तस्य अङ्गस्य वृद्धिः भवति. अपि च अत उपधायाः इत्यनेन अदुपदधातोः प्रसङ्गे उपधायाः वृद्धिः भवति.
उत्तमम्. आर्धधातुः कित् ङित् 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 भिन्नः अस्ति चेत्?
हा, तत्तु सार्वधातुकपित् प्रत्ययस्य सादृशमेव भवति. सार्वधातुकपित् प्रत्ययाः अपि च आर्धधातुक कित् ङित् 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 भिन्नप्रत्ययाः उभयोः कृते उभये प्रत्यये यदा धातोः विहिताः भवन्ति तदा गुणः भवति, इगन्तस्य अङ्गस्य गुणः भवति, अपि च उपधायामपि गुणः भवति पुगन्त इत्यनेन.
उत्तम. सार्वधातुकपित् प्रत्यये परे यथा गुणकार्यं भवति तथा एव आर्धधातुक कित् ङित् 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 भिन्नप्रत्यये परे भवति खलु?
आम्.
कार्यसाम्यमस्ति द्वयोर्मध्ये.
आम्.
एतत् सर्वं किमर्थं पठनीयं, किमर्थम् एतादृशी स्पष्टता आवश्यकी? सिद्धान्तकौमुदीं पश्यामश्चेत् तत्र सर्वेषां लकाराणां रूपाणि, सर्वाणि रूपाणि एकत्रैव दीयन्ते. सर्वेषां लकाराणां रूपाणि एकत्रैव स्थापितानि भवन्ति चेत् तेन क्रमेण पठनेन अस्माकं मनसि भ्रमः जायते, ज्ञानस्य दृढता न भवति. अतः ज्ञानं सुदृढं भवतु इति मत्वा आर्धधातुकप्रक्रिया नाम किं, सार्वधातुकप्रक्रिया नाम किम्, एतत् सर्वं पृथक्तया स्पष्टतया पृथक् कृत्वा स्पष्टावगमनार्थम् एतत् सर्वं विभज्य पठामः. अस्माकं सौलभ्यार्थमेव ज्ञानस्य दृढता आवश्यकी, अतः एवं रीत्या पठामः. अत्र नीधातोः रूपम् एकवारं परिशील्य स्थगयाम. नीधातोः रूपाणि साधयितुमिच्छति वा भगिनी? नीधातुतः नयति इति रूपम् अस्ति, नयते इति रूपम् अस्ति. भवती जानाति, वक्तुमिच्छति चेत् वदतु. नि इति धातुः अणोपदेशधातुः, णीङ् इति रूपम् अस्ति. णीङ् इति धातोः रूपं स्वीकृत्य तस्मात् आरभ्य नयति वदतु.
णीय इति औपदेशिकधातुः, णो नः इत्यनेन तस्य णकारस्य स्थाने नकारस्य आदेशः भवति.
णी इत्यत्र उपदेशावस्थायां मूर्धन्य णकारः अस्ति, धातोः आदौ अपि च अन्ते च वर्गीय अन्तिमव्यञ्जनम् अस्ति. तस्य अर्थः कः?
आम्, ञकार इति हलन्त्यम् इत्यनेन तस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन तस्य लोपः अपि भवति. अधुना णीय इति ञित् धातुः भवति, अतः एकं सूत्रमस्ति स्वरित इत् कर्तृभिप्राये क्रियाफले इत्यनेन सः धातुः यदा धातोः फलं कर्तरि प्रति गच्छति चेत् कर्तृभिप्रायः अस्ति चेत् तस्य आत्मनेपदी रूपाणि भवन्ति. तत् तादृशं परिस्थितिः नास्ति चेत् तस्य परस्मैपदी रूपाणि भवन्ति इति तस्य आशयः.
चवर्गीय अन्तिमव्यञ्जनं तस्य धातोः अन्ते अस्ति इति कारणतः यकारः इत् संज्ञकः हलन्तिम् इत्यनेन इत् संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति. भगिन्या उक्तं स्वरितनितकर्तृभिप्रायक्रियाफले सूत्रेण धातुः इणित् अस्ति इति कारणतः उभयपदी भवति. इत्युक्ते क्रियायाः फलं कर्तारम् अभिप्रैति इति चेत् आत्मनेपदप्रत्ययाः आयान्ति. क्रियायाः फलम् अपरेषां प्रति गच्छति चेत् तदा शेषात् कर्तरि परस्मैपदं सूत्रेण परस्मैपदसंज्ञकप्रत्ययाः आयान्ति इति धातोः औपदेशिक अवस्थायां तस्य रूपं दृष्ट्वा अवगन्तुं शक्नुमः. इत्युक्ते धातुः उभयपदी धातुः इणित् अस्ति इति कारणतः अतः नयति नयते इति रूपद्वयम् अस्ति. आदौ अनुबन्धलोपः करणीयः. प्रथमतया अनुबन्धलोपं कृत्वा तस्मात् परं प्राकृतिकानि कार्याणि करणीयानि. प्राकृतिकानि कार्याणि इति कथनेन प्रत्ययम् अनपेक्ष्य प्रत्ययम् अनावश्यकं तत् कार्यं भवितुं प्रत्ययं विना प्रत्ययस्य निमित्तं विना इदं कार्यं प्राकृतिकं कार्यं भवति. नीङ् धातोः प्रसङ्गे प्राकृतिकं कार्यं किं प्रत्ययम् अनपेक्ष्य
तत्र अणो नः इत्यनेन अणकारस्य णि इत्यस्य णि इति रूपं भवति लौकिकरूपं भवति. प्रत्ययस्य आवश्यकता नास्ति
नास्ति. प्राकृतिककार्यं भवितुं प्रत्ययः अनावश्यकः. अत्र णो नः इति सूत्रेण मूर्धनि अणकारस्य स्थाने दन्तनकारः आयाति. धातुः णोपदेशधातुः तेन नी इति रूपम् आयाति. नी इति धातुः कीदृशः?
नी इति इगन्तधातुः.
अपि च धातोः मूलरूपं दृष्ट्वा इड्व्यवस्थामपि अवगन्तुं शक्नुमः खलु. किमर्थं चेत् आर्धधातुकप्रक्रियायां तत्र इडागमः भवति वा न वा इति अपि चिन्तनीयं खलु. अत्र किं लिखितमस्ति? क्त्वाप्रत्ययान्तरूपं साधयतु, तुमुन्नन्तं रूपं साधयतु इति लिखितम् अस्ति. क्त्वाप्रत्ययान्तरूपाणि तुमुन्नन्तरूपाणि आर्धधातुकप्रक्रियायाम् आयान्ति. आर्धधातुककृदन्तरूपं साधयितुम् इडागमविचारः करणीयः. अतः अयं धातुः सेट् वा अनिट् वा इति वक्तव्यं. वदतु.
नी इति दीर्घ ईकारान्तधातुः अस्ति. दीर्घ ईकारान्तधातवः सर्वे अनिट् धातवः. डीङ् शीङ् इति द्वौ धातौ विहाय सर्वे ईकारान्तधातवः अनिट् एव. अतः नी इति अनिट् धातुः इति वक्तुं शक्यते.
अत्र इतोपि चिन्तनमस्ति. धातुः सेट् वा अनिट् वा इति वक्तुम् एकं विधानम् अस्ति, चिन्तनम् अस्ति. इत्युक्ते सूत्राधारेण खलु.
आमां, तत्र एका च उपदेशेशिति इति एकं सूत्रमस्ति.
एका च उपदेशे अनुदात्तात्. वदतु.
एका च उपदेशेऽनुदात्तात् इति सूत्रेण यः धातुः स एकाच् अस्ति. उपदेशे उपदेशावस्थायां तस्य अनुदात्तस्वरस्य उपदेशे अनुदात्तात्
एका च उपदेशे अनुदात्तात् इति सूत्रेण धातोः अनिटत्वम् उच्यते. इत्युक्ते धातुः एका च स्यात्, अपि च धातौ अनुबन्धवर्णानां लोपकार्यानन्तरं यः अवशिष्टस्वरः अस्ति सः अवशिष्टस्वरवर्णः अनुदात्तः अस्ति चेत् सः धातुः अनिट्. तादृशी स्थितिः अस्मिन् धातौ अस्ति. निधातौ अस्ति, धातुः एकाच् अस्ति, अनुबन्धवर्णानां लोपकारे अनन्तरम् एकाच् अस्ति, अपि च तत्र अवशिष्टस्वरः ईकारः अनुदात्तः अस्ति. इत्युक्ते अधोभागे रेखा अस्ति इत्यतः अयं धातुः अनिट् अस्ति. इत्युक्ते इडनुकूलः नास्ति. तावत्पर्यन्तं प्रथमतया स्पष्टतया ज्ञातव्यम् औपदेशिकधातुं दृष्ट्वा. इदानीं नयति रूपं साधयतु.
नयति इति नि इति धातुः तस्य प्रथमपुरुषः एकवचनस्य विवक्षायां तिप् इति प्रत्ययः, प्रथमं तु लट् इति, लट् इत्यस्मात् लकारः अवशिष्यते अनुबन्धलोपानन्तरं. भू क्षम्यतां, नि ल इति, लस्य इति अधिकारे
किमर्थं लट् इति योजयामः? तत्र लट् प्रत्ययः केन सूत्रेण आयाति?
वर्तमाने लट् इति सूत्रेण.
अनुबन्धलोपं करोतु.
लट् इत्यस्मात् टकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः. ल लकारोत्तरवर्तिः अकारः अनुनासिकः अस्ति, अतः तस्य उपदेशेज अनुनासिक इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन लोपः. ल लकारः एव अवशिष्यते, तस्य इत्संज्ञा न भवति. किमर्थं चेत् तस्मिन् स्थाने तिबादयः आदेशाः वयं करिष्यामः. अतः
लौकिकधातुः नी अस्ति, नी तस्मात् परं लकारः अस्ति, तदा किं भवति?
नी लकारः, लकारः तस्य लादेशाः भवन्ति. लादेशाः तिप्तस्य सिप्तस्थ मिप्वस्मस् इति बृहत् सूत्रमस्ति. तेन सूत्रेण प्रथमपुरुषः एकवचनस्य विवक्षायां वर्तमाने वर्तमानकालस्य विवक्षायां तिप् इति प्रत्ययः, अतः नी तिप् इति भवति.
किमर्थं केवलं तिप् इति प्रत्ययं स्वीकृतवती, किमर्थं था इति न स्वीकृतवती? तिप्तस्झि इत्यस्मिन् सूत्रे अष्टादश प्रत्ययाः सन्ति. तिप्तस्झि इति दीर्घं सूत्रम् उक्तवती. तिप्तस्झि सिप्तस्थमिप्वस्मस्ता तां छता आथां ध्वम् इड्वहिमहि. तस्मिन् सूत्रे आत्मनेपदप्रत्ययाः सन्ति, परस्मैपदप्रत्ययाः सन्ति, किन्तु किमर्थं तिप् एव स्वीकृतवती?
तत्र सूत्रत्रयमस्ति. युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः. तत्र युष्मद् इत्यस्य विवक्षा अस्ति चेत् मध्यमपुरुषः भवति.
किमर्थं तिप् एव स्वीकृतवती इति प्रश्ने सति, यद्यपि धातुः उभयपदी धातुः, तथापि परस्मैपदरूपं भवती साधयितुम् इच्छति खलु? नयति इति रूपं साधयितुम् इच्छति. अतः परस्मैपदधातोः परं परस्मैपदसंज्ञकप्रत्ययाः एव आयान्ति. केन सूत्रेण इत्युक्ते लः परस्मैपदं, लकारस्य स्थाने परस्मैपदसंज्ञकप्रत्ययाः एव आयान्ति इति. तत्र लः परस्मैपदम् इति सूत्रेण, यद्यपि तिप्तस्य सूत्रे अष्टादश प्रत्ययाः सन्ति, तथापि अत्र नयति इति रूपं साधयितुम् इच्छामः, परस्मैपदरूपं साधयितुम् इच्छामः, अतः तिप् स्वीकृतवती खलु?
आमाम्.
अपि च तत्र प्रथमपुरुष एकवचनरूपं साधयितुम् इच्छामः, अतः शेषे प्रथमः इति सूत्रमपि आयाति खलु? नियोगः तिप्. इदानीम् अनुबन्धलोपं करोतु.
अनुबन्धलोपे पकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन, तस्य लोपः इत्यनेन लोपः. ति इति अवशिष्यते, नि ति इति भवति. अधुना ति इति तिङ् प्रत्ययः, अतः तिंशित् सार्वधातुकम् इत्यनेन तस्य सार्वधातुकसंज्ञा भवति. नि ति इति ति इति कर्तरर्थे अस्ति, कर्तरर्थकसार्वधातुकप्रत्ययः अस्ति, अतः कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः धातुः तिङ्प्रत्ययोर्मध्ये आयाति. अतः अधुना नि शप् ति इति भवति. शप् इत्यस्मात् पुनः लशक्वतद्धिते इत्यनेन शकारस्य इत्संज्ञा, अपि च पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, उभयोः तस्य लोपः इत्यनेन लोपः भवति. अ इति अवशिष्यते. अधुना नि अ ति इति भवति. शप् इति प्रत्ययः अपि शित् अस्ति इति कारणात् तस्य सार्वधातुकसंज्ञा भवति, तिङ्शित् सार्वधातुकम् इत्यनेन. अतः नि अ ति, अ इति सार्वधातुकप्रत्ययः अस्ति इति कारणात् नि इत्यस्य इगन्त अङ्गस्य गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेन. नि अ इति गुणः भूत्वा ने भवति, ने अ ति. अधुना ने एकारान्त ए इति अस्ति, तदनन्तरम् अ इति अस्ति, अतः एचो यवायावः इत्यनेन
अस्यां दशायाम् एव धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्. अत्र धातुः भुवादिगणे अस्ति इति कारणतः कर्तरिशप् सूत्रमेव कार्यं करोति खलु? तत्र अन्ये केचन धातवः सन्ति खलु, चि इति धातुः स्वादिगणे अस्ति. अस्यां दशायां यदा कर्तरिशप् आयाति, अस्यां दशायाम् एव यदा कर्तरि शप् सूत्रेण शपः विधानं भवति तदा एव सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यम्। अत्र नीधातुः भुवादिगणे अस्ति इति कारणतः तत्र शप् तिष्ठति। यचोयवायावः
एचोयवायावः इत्यनेन ने इत्यस्य ने अ इत्यस्य एकारस्य स्थाने ऐ इति आदेशः, अतः नय् नय् अ ति वर्णमेलनेन नयति, प्रकृतिप्रत्ययमेलनेन नयति इति रूपं सिद्धं भवति।
नय इति अङ्गं भवति, कस्य कृते अङ्गं नय?
ति इत्यस्य कृते नय इति अङ्गम्।
तत्र इतोपि कार्यमस्ति वा नास्ति वा, किमर्थं नास्ति?
नयति तत्र कार्यं नास्ति, केवलं प्रकृतिप्रत्ययमेलनमेव। किमर्थं चेत् तत्र तत्र ति इत्यस्य इत्यस्य आदौ कोऽपि अजादिप्रत्ययः आसीत् चेत् अतो गुणे गुणे इत्यनेन
अत्र किं वक्तव्यम् इत्युक्ते नय इति अङ्गम् अस्ति तिप् प्रत्ययं निमित्तीकृत्य, तिप् प्रत्ययं निमित्तीकृत्य नय इति अङ्गम् अस्ति, नय इति अङ्गम् इगन्तं नास्ति इति कारणतः गुणः न भवति। किन्तु केषुचित् स्थलेषु करोति इत्यत्र पश्यामश्चेत् द्विवारं गुणकार्यं द्रष्टुं शक्नुमः, इत्युक्ते तिप् प्रत्ययं निमित्तीकृत्यापि गुणकार्यं भवति तत्र। किन्तु नयति इत्यत्र केवलं शप् प्रत्ययं निमित्तीकृत्य नी इति धातुरूपी अङ्गे गुणकार्यं भवति, अङ्गकार्यं भवितुं प्रत्ययः आवश्यकः, किन्तु सन्धिकार्यं भवितुं प्रत्ययस्य आवश्यकता नास्ति। अङ्गकार्यस्य अनन्तरं सन्धिकार्यं यचोयवायावः सन्धिकार्यं भवति, नय इति रूपं सिद्ध्यति, नय इति अङ्गं भवति इति प्रत्ययं निमित्तीकृत्य, किन्तु तत्र अङ्गकार्यं नास्ति। किमर्थं चेत् नय इति इगन्तमङ्गं नास्ति इत्यतः गुणः न भवति, केवलं वर्णमेलनं भूत्वा नयति इति रूपं, नयति इति परस्मैपदरूपम् अस्ति, किन्तु आत्मनेपदरूपं नयते अस्ति। तत्र ते इति रूपं किमर्थं सिद्ध्यति तावद् वदतु? नयते
आतां झा साथां ध्वम् इडबहि महिम् इति आत्मनेपदी प्रत्ययाः भवन्ति तङ्गानाम् आत्मनेपदम् इत्यनेन। तस्मात् पुनः प्रथमपुरुष एकवचनस्य विवक्षायां त इति प्रत्ययः वयं स्वीकुर्मः, नी त इति भवति। तत्र एकं सूत्रमस्ति टित् आत्मनेपदानां टेरे इति, तत्र टित् लकारः अस्ति चेत् टित् लकाराणां विषये आत्मनेपदेषु प्रत्ययेषु टि भागस्य ए इति आदेशः भवति। अधुना त इति प्रत्ययः अस्ति, तस्य टि भागः अ इति अस्ति अन्तिम अकारः, अतः अ इत्यस्य एकारादेशः भवति, अतः त ए तकार ए इति ते इति भवति। पुनः प्रक्रिया तु समाना एव, यदा नयति इति वयं साधितवन्तः तादृशी एव प्रक्रिया, अत्र केवलं नयते इति भवति।
बहु सम्यक्, तथा वक्तव्यम्। एतत् सर्वं सार्वधातुकप्रक्रियायाम् आयाति। नी धातोः रूपद्वयं नयति नयते इति भगिनी बहु सम्यक् साधितवती, धन्यवादाः भगिनी। तिप् तस्चि इति दीर्घं सूत्रमस्ति खलु, तस्मिन् तङ् प्रत्ययान् स्वीकुर्मः, आत्मनेपदिरूपं साधयितुम् इच्छामः इत्यतः ता इति प्रत्ययं योजयामः, नी धातुतः ता इति प्रत्ययं योजयामः, अपि च आत्मनेपदरूपं साधयितुमिच्छामः इत्यतः तङ्गानाम् आत्मनेपदम् इति सूत्रं तत्र आयाति। तङ् प्रत्ययाः आनप्रत्ययद्वयं तङ्गानाम् आत्मनेपदम् इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः भवन्ति। अपि च टित आत्मनेपदानां टेरे इति सूत्रमपि ज्ञातव्यं तस्मिन् प्रसङ्गे। टित आत्मनेपदानां टेरे इति सूत्रेण एकारादेशः भवति, अपि च तत्र टि संज्ञा नाम किम् इत्यपि ज्ञातव्यम्। टि इति एका संज्ञा अस्ति, अचोन्त्यादि टि इति एकं सूत्रमस्ति, संज्ञासूत्रम्, अचोन्त्यादि टि इति सूत्रेण टि संज्ञा उच्यते, तत् सर्वं ज्ञातव्यम्। निधातुतः क्त्वान्तरूपं नीत्वा, निजन्तरूपं नाययति, तुमुन्नन्तं रूपं नेतुम्, इमानि रूपाणि साधनीयानि नीधातोः रूपाणि। भवन्तः सर्वे गृहपाठरूपेण एतत् कार्यं कुर्वन्तु, अपि च अन्ये केचन धातवः सन्ति सर्वेषां प्रसङ्गे चिन्तनं कृत्वा रूपाणि साधयन्तु। जस्ट् लैक् वि डू द मेथ्स्, स्टेप् वैस् सोपानक्रमेण सर्वं लेखनीयं गृहपाठरूपेण कुर्वन्तु. इदानीं समयाभावात् अत्र स्थगयामः. सर्वेषां धन्यवादाः.
धन्यवादः भगिनि.
धन्यवादः. धन्यवादः भगिनि. नमस्कारः.
धन्यवादाः भगिनी.